इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् नवदिल्ल्यां सञ्जातायाः भयावह घटनायाः षड्यन्त्रकर्तारः नैव क्षमिष्यन्ते। केन्द्रीय गृहमन्त्री अमितशाहः अद्य नवदिल्ल्यां स्वकीयावासे उच्चस्तरीय सुरक्षा समीक्षोपवेशनस्य आध्यक्षम् अकरोत्। बिहार राज्ये विधानसभा निर्वाचनस्य द्वितीयान्तिमचरणाय 67% मतदानं समभवत्। भारतेन संयुक्तराष्ट्र सुरक्षा परिषदः सकाशात् आतंकवादे सहायतां कुर्वतः जनान् प्रति असहिष्णुतायाः नीतिम् अवलम्बयेदिति अभ्यर्थितम्। अपि च दिल्ल्याः वायुगुणवत्ता गभीरश्रेण्यां समापतिता, केन्द्रसर्वकारेण ग्रेप् तृतीयम् इति प्रवर्तितं, सहैव पञ्चमीकक्षापर्यन्तं विद्यालयाः आन्लैन् रूपेण प्रचलिष्यन्ति। अथ वार्ताः विशदीकृत्य। प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् नवदिल्ल्यां सञ्जातायाः भयावह घटनायाः षड्यन्त्रकर्तारः नैव क्षमिष्यन्ते। भूटानस्य थिम्पूनगरे एकं कार्यक्रमं सम्बोधयन् श्रीमोदी अवदत् यत् सः गतदिने सञ्जातायाः घटनायाः अनुसन्धाने संलग्न अभिकरणैः सह सम्पर्के वर्तते। सः आश्वासितवान् यत् अन्वेषणबलानि अस्य षड्यन्त्रस्य अवश्यमेव मूलाधारं निग्रहीष्यन्ति।
दिल्ली में हुई भयावह घटना ने सभी के मन को व्यथित कर दिया है। मैं कल रात भर इस घटना की जांच में जुटी सभी एजेंसियों के साथ, सभी महत्वपूर्ण लोगों के साथ संपर्क में था, विचार विमर्श चलता था, जानकारियों के तार जोड़े जा रहे थे। हमारी एजेंसियां इस षड्यंत्र की तह तक जाएगी, इसके पीछे के षड्यंत्रकारियों को बक्सा नहीं जाएगा।
प्रधानमन्त्री प्रावोचत् यत् अद्यतनदिवसः भूटानाय, हिमालयीय राष्ट्रस्य राजपरिवाराय तथा विश्वशान्तौ विश्वासं कुर्वद्भ्यः सर्वेभ्यः जनेभ्यः अतिमहत्त्वपूर्णः वर्तते। तेनोदीरितं यत् शताब्दिभ्यः भारतभूटानयोः मध्ये सम्बन्धाः अतीव गभीराः, सौहार्दपूर्णाः तथा सांस्कृतिकाः च आसन्। अतः एतस्मिन् महत्त्वपूर्णावसरे भागग्रहणं भारतस्य कृते, तस्य कृते चापि एका प्रतिबद्धता आसीत्।
भारत और भूटान की कनेक्टिविटी बढ़ाने पर भी हमारा फोकस है। हम सभी जानते हैं कनेक्टिविटी क्रिएट्स अपॉर्चुनिटी एंड अपॉर्चुनिटी क्रिएट्स प्रॉस्पेरिटी। इसी लक्ष्य के साथ आने वाले समय में गैलेफू और सामत से शहरों को भारत के विशाल रेल नेटवर्क से जोड़ने का फैसला लिया गया है। इस प्रोजेक्ट के पूरा होने से यहाँ की इंडस्ट्री का, भूटान के किसानों का भारत के विशाल मार्केट तक एक्सेस और हो जाएगा।
केंद्रीय गृहमंत्री अमित शाहः अद्य नवदिल्ल्यां स्वकीयावासे उच्चस्तरीय सुरक्षा समीक्षोपवेशनस्य आध्यक्षम् अकरोत्। उपवेशनेस्मिन् तावत् गतदिने नवदिल्लीस्थस्य लालकिलायाः समीपे वाहनविस्फोटेन समुद्भूतायाः स्थितेः आकलनं सञ्जातम्। एतस्मिन् प्रकरणे 8 जनाः मृत्युम् उपगताः, सहैव अन्ये केचन व्रणिताः समभवन्। जम्मूकश्मीरस्य आरक्षकमहानिदेशकः अस्मिन् उपवेशने प्रातिभासिकमाध्यमेन सम्मिलितः। गृहमन्त्रालयेन घटनायाः अनुसन्धानं राष्ट्रिय अनुसन्धानाभिकरणाय प्रदत्तम्। विस्फोटस्य कारणानि तथा परिस्थितिम् अवज्ञातुं, जनतायाः सुरक्षां सुनिश्चेतुं च अधिकारिणः कठोरपर्यवेक्षणं कुर्वन्तः सन्ति। दिल्ली आरक्षकेण अवैध गतिविधि निवारण अधिनियमान्तर्गतं, विस्फोटक अधिनियमान्तर्गतं, सहैव भारतीय न्याय संहितायाः विभिन्न अनुच्छेदान्तर्गतञ्च प्रकरणमिदं पञ्जीकृतम्। दिल्ली मेट्रो रेल कॉर्पोरेशन इत्यनेन प्रोक्तं यत् सुरक्षाकारणात् लालकिला मेट्रो स्थानकं पिहितं भविष्यति। बिहार राज्ये विधानसभा निर्वाचनस्य द्वितीयान्तिमचरणाय 67% मतदानम् अभवत्। अस्मिन् चरणे 20 जनपदेषु 22.1% आसनेषु मतदानम् अभवत्। 7,00,000+ मतदातारः 2,13,00,000 प्रत्याशिनां निर्वाचनभाग्यं निर्णेष्यन्ति। तेषु 38,00,000 महिलाप्रत्याशिनः सन्ति। मतदानं प्रातः 7 आरभ्य सायं 6 समाप्तं 7 आसनेषु सुरक्षा कारणात् सायं 5 पर्यन्तं मतदानं समजायत। निर्वाचनायोगेन निर्वाचनस्य विस्तृत प्रबन्धाः प्रकल्पिताः। संस्कृत वार्तायाः संस्करणमिदं इदानीं आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair चलदूरभाषीयतन्त्रांशे अपि समुपलब्धो भविष्यति। दिल्ली कार विस्फोटस्य उत्तरदायिनः न्यायालयस्य समक्षं स्थापयिष्यन्ते। तेषां कृते दण्डः निश्चप्रचं भविष्यतीति रक्षामन्त्री राजनाथ सिंहः अद्य देशाय प्रतिज्ञापितवान्। अद्य नवदिल्ल्यां दिल्ली रक्षण संवादं सम्बोधयन् श्रीसिंहः सूचितवान् यत् प्रमुखानि अन्वेषण संस्थानानि घटनायाः विषये द्रुतं सम्यक् च अन्वेषणं कुर्वन्ति इति।
मैं दिल्ली में कल हुई दुखद घटना में जान गंवाने वाले सभी लोगों के परिजनों के प्रति गहरी संवेदनाएं व्यक्त करता हूं। इस मंच से मैं अपने नागरिकों को आश्वस्त करना चाहता हूं कि देश की प्रमुख जांच एजेंसियां इस घटना की त्वरित और विस्तृत जांच कर रही हैं। जांच के निष्कर्ष जल्द ही सार्वजनिक किए जाएंगे। मैं औपचारिक रूप से राष्ट्र को आश्वस्त करना चाहता हूं कि इस घटना के जिम्मेदार लोगों को न्याय के कटघरे में लाया जाएगा और किसी भी स्थिति में उन्हें बख्शा नहीं जाएगा।
दिल्ली रक्षा संवाद विषये वदन मंत्री अवदत् यत् एषः संवादः रक्षा सुरक्षायाः बहुविध समस्यानां विषये पूर्ण विचार विमर्शस्य रणनीतिक संलग्नतायाः च प्रमुख मंच रूपेण उदभवत्। सः अवदत् यत् संवादोऽयं नूतन दृष्टिं विश्लेषणात्मिकाम् अन्तर्दृष्टिं च एकत्र आनयति, येन परिवर्तमाने वैश्विक परिवेशे समकालीन प्रवृत्तीनां विचाराणां च परीक्षणं कर्तुं शक्यते। भारतेन संयुक्तराष्ट्र सुरक्षा परिषदः आतंकवादे उपयुक्तानां अवैध शस्त्राणां संचारस्य वित्तपोषणस्य च सहायतां कुर्वद्भ्यः जनेभ्यः असहिष्णुतायाः नीतिम् अवलम्बयेदिति अभ्यर्थितम्। संयुक्तराष्ट्रे लघुशस्त्राणां विषये एकस्मिन् परिचर्चा सत्रे सम्बोधयन् भारतस्य स्थायी प्रतिनिधिः राजदूतः पर्वतनेनी हरीशः अवदत् यत् देशः दशकेभ्यः अतिसीम्नः आतंकवादेन सह संघर्षं कुर्वन्नस्ति इति। दिल्ल्याः समीपवर्ति क्षेत्रेषु वायुगुणवत्ता गभीरश्रेण्याम् अवलोक्य केन्द्रसर्वकारेण स्तरीकृत प्रतिक्रिया कार्ययोजना ग्रैप इत्यस्य तृतीयचरणस्यान्तर्गतं कठोरं प्रदूषण निवारणात्मकाः कठोर प्रतिबन्धाः प्रवर्तिताः। वायुगुणवत्ता प्रबन्धन आयोगेन सूचितं यत् दिल्ल्याः वायुगुणवत्ता सूचकाङ्कः अद्य 62-300 इत्यतः समेध्य 400 यावत् वर्धितः, यः गभीरवर्गे अन्तर्भवति। परिणामतः पञ्चमकक्षापर्यन्तं विद्यालयानां अध्यापनं निरस्तीकृत्य कक्ष्याः आन्लाइन रूपेण प्रवर्तिताः। दिल्ल्यां सम्प्रति सञ्जातेन विस्फोटकारणेन रियासी जनपद प्रशासनेन आरक्षकैः सह श्रीमाता वैष्णोदेवी तीर्थयात्रायाः आधारशिविरे कटरायां समीपप्रदेशेषु च सुरक्षा संवर्धनं कृतम्। राज्येन हाई अलर्ट स्थाप्यते। प्रमुखस्थानेषु सुरक्षाकर्मिणां नियोजनं च संवर्धितम्। सर्वेषु प्रवेशनिर्गमबिन्दुषु विशेषसुरक्षाकेन्द्राणि स्थापितानि, यत्र वाहनानां सूक्ष्म अन्वेषणं क्रियते। प्रशासनं जनान् तीर्थयात्रिणश्च प्रति सुरक्षासंस्थाभिः सह सहयोगं कर्तुं वैधपरिचयपत्राणि धारयितुं संशयास्पदगतिविधीनां शीघ्रं निवेदनं दातुं च आग्रहं कृतवान्। सम्पूर्णे तमिलनाडुराज्ये सुरक्षाव्यवस्था दृढीकृता अस्ति। अन्ताराष्ट्रियविमानयानयात्रिणः चेन्नई अन्ताराष्ट्रियविमानस्थानकं 3:30 पूर्वमेव राष्ट्रियविमानयात्रिणः 3:30 पूर्वमेव आगच्छेयुः इति निर्देशः दत्तः अस्ति। विमानस्थानकं परितः 5-स्तरीया सुरक्षाव्यवस्था स्थापिता अस्ति, तथा च सुरक्षाकर्मचारिभिः वाहनानि अन्वीक्ष्यन्ते इति वार्ताः।